एफएम आकाशवाणी संप्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि झा अथ वार्ताः केन्द्रीय नवीन प्रशासनस्य अद्य भावमानस्य प्रतिज्ञाग्रहण समारोहस्य सज्जता सम्पन्ना जाता। राष्ट्रपतिः द्रौपदी मुर्मुः एनडीए संसद्दलस्य नेतारं नरेन्द्र मोदिनं नवीन प्रशासनस्य निर्माणाय आमन्त्रितवती। शपथ ग्रहण समारोहः अद्य सायं पञ्चदशकालोत्तर सप्तवादने राष्ट्रपति भवनस्य प्रांगणे भविता। राष्ट्रपतिः द्रौपदी मुर्मुः श्रीनरेन्द्र मोदिनं तस्य मन्त्री परिषद सदस्यान् च पदस्य गोपनीयतायाश्च शपथं ज्ञापयिष्यति। श्रीमोदी परह्यः राष्ट्रपतिना सह मेलनं कृत्वा नवीन प्रशासन निर्माणस्य च प्रस्तावं प्रस्तुतवान्। राष्ट्रपति भवनात् बहिः मोदी न्यगदत् यत् राष्ट्रिय जनतांत्रिक गठबंधन इति दलं सुदृढं स्थिरं विकासोन्मुखं च प्रशासनं निर्मास्यति। श्रीमोदिना उक्तं यत् जनाः राष्ट्रिय जनतांत्रिक गठबंधन मित्यस्मै एकं अवसरं दत्तवन्तः। अपि च एतत् अष्टादशम लोकसभा नवीनानां यूनां च ऊर्जायाः सूत्रः अस्ति। विदेश मन्त्रालयेन संसूचितं यत् श्रीलंकायाः राष्ट्रपतिः रानिल विक्रमसिंघे, मालदीवस्य राष्ट्रपतिः डॉ मोहम्मद मुइजुः, सेशेलस्य उपराष्ट्रपतिः अहमद अफीफः, बांग्लादेशस्य प्रधानमन्त्री शेख हसीना, मॉरिशस देशस्य प्रधानमन्त्री प्रविन्द कुमार जुगनौथः, नेपालस्य प्रधानमन्त्री पुष्पकमल दहलः प्रचण्ड, भूटानस्य च शेरिंग तोंगे इमे सर्वेऽपि समारोहे भागं ग्रहीष्यन्ति। एते नेतारः अस्माकं संवाददातृभिः सूचितं यत् श्रीनरेन्द्रमोदी अनवरतं तृतीयं वारं प्रधानमन्त्रिपदस्य शपथग्रहण समारोहे भागं ग्रहीतुं निकटवर्तीनां देशानां विभिन्नाः नेतारः आमन्त्रिताः। कांग्रेसदलस्य वरिष्ठा नेत्री सोनियागांधी सर्वसम्मत्या कांग्रेससंसदीयदलस्य अध्यक्षत्वेन चिता। दलस्यास्य नेता राजीव शुक्लः ह्यः नवदिल्ल्याम् अवोचत् यत् श्रीमती गांधिना पदोऽयं स्वीकृतः। निर्णयोऽयं कांग्रेसदलस्य कार्यसमितेः उपवेशने स्वीकृतः। भारतीय ऋतुविज्ञान विभागेन पश्चिमोत्तर भारते अद्यारभ्य उष्णतरंग प्रवाहः सम्भावितः। विभागेन संसूचितं यत् अग्रिमेषु पञ्चदिवसेषु मध्यपूर्व भारत, उत्तरप्रदेश, उत्तरपूर्व मध्यप्रदेश राज्येषु भीषण उष्णता भविष्यति। ऋतुविज्ञान विभागस्य वैज्ञानिकः डॉ आर के जैन मणिना आकाशवाण्याः वार्ताहरान् संसूचितं यत् अग्रिमेषु त्रिदिवसेषु मध्य महाराष्ट्र सहितं देशस्य दक्षिण क्षेत्रेषु वृष्टिः सम्भाव्यते। संयुक्त राष्ट्र संघः सशस्त्र संघर्षावधौ बालानां विरुध्य अपराधं कुर्वतां देशानां संस्थानां च वार्षिक लज्जासूचौ लिस्ट ऑफ शेम इत्यस्मिन् इजराइल हमास देशयोः समावेशम् अकरोत्। इजराइल हमास देशयोः अस्मिन् सूचौ प्रथमवारं समावेशः जातः। रूस, इस्लामिक देशाः, अलकायदा, बोको हरम, अफगानिस्तान, इराक, म्यांमार, सोमालिया, यमन, सीरिया इत्यादयः देशाः पूर्वमेव अस्मिन् सूचौ समाविष्टाः सन्ति। इजराइल प्रथमः लोकतांत्रिकः देशः वर्तते यः अस्मिन् सूचौ समाविष्टः। अस्मिन् निर्णये प्रधानमन्त्री बेंजामिन नेतन्याहू इत्यनेन तीक्ष्ण प्रतिक्रिया प्रकटिता। फ्रेंच ओपन टूर्नामेंट स्पर्धा श्रृंखलायां महिलाइक एकांत्य चक्रे पोलैंडस्य ईगा स्वियातेकः अनुक्रमं तृतीयवारं विजितवती। महिला एकांत्यचक्रे शीर्षवरीयता प्राप्ता स्वियातेकः इटलीदेशस्य जैस्मिन पाओलिनीम् अनवरतं पराजितवती। इति वार्ताः।